इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः रूपलाल शर्मा। आदौ मुख्य वार्ताः। प्रधानमंत्री श्री नरेन्द्र मोदी गुजरातस्य सूरते भारतस्य प्रथम बुलेट रेल यान परियोजनायाः दलीय कर्मिभिः सह वार्तालापम् अकरोत्। कार्यप्रगतेश्च समीक्षामपि विहितवान्। उत्तर प्रदेशस्य सोनभद्र जनपदे एकस्याः खानक गुहायाः भूमौ निमज्जनात् एकस्य कर्मिणः मरणं संजातम्, अपि च दशाधिक जनाः तत्र भूमिसात् संजाताः इति आशंक्यते। छत्तीसगढ़स्य सुकमा जनपदे सुरक्षाबलैः सह जाते संघर्षे त्रयः माओवादिनः सुरक्षाबलैः मारिताः। कोलकातायाः ईडन गार्डन क्रीडांगणे पुरुष क्रिकेट निकष प्रतिस्पर्धायां दक्षिणाफ्रीका दलेन भारतीय दलं प्रथम निकष स्पर्धायां 30 धावनांकैः पराजितम्। अथ वार्ताः विस्तरेण। प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना एतस्मिन् विषये बलाघातः कृतः यत् प्रत्येकं भारतवासी एवं विधं चिन्तनं कुर्यात् यत् सः देशस्य विकासस्य किं नवीनं विशिष्टं वा कर्तुं पारयेत्। यदा एतादृशी देशप्रेम भावना भवति तदा सः प्रेरणास्रोतोरूपेण अपि जायते। ह्यः श्रीमोदिना सूरते भारतस्य प्रथम बुलेट रेल यान परियोजनायाः समीक्षायाः अनन्तरं परियोजना दलेन सह वार्तालापः कृतः। प्रधानमन्त्रिणा बुलेट रेल यान योजनायाः तुलना भारतीय अन्तरिक्ष यात्रया सह कृता, तथा च स्मृतं यत् येन देशस्य प्रथमोपग्रह प्रक्षेपितः तादृशः वैज्ञानिकदलं सदैव स्मर्यते, अपि च तद्दलमपि गौरवम् अनुभवति। सम्प्रति तु भारतेन 100+ उपग्रहा प्रक्षेप्यन्ते। प्रधानमन्त्रिणा परियोजनायाः समीक्षणं कृतं तथा च यथाकालं पूर्णता तत्र भवेत् इत्यपि संकल्पितम्। कार्यकर्तृभिः श्रीमोदी आश्वासितं यत् परियोजनायाः काठिन्यं विना समीचीनरूपेण तत्र कार्यं प्रचलति। श्रीमोदिना तत्र लग्नः कर्मचारिणः प्रेरिताः यत् ते स्वीयान् अत्रत्या संजातान् अनुभवान् लिखेयुः, अपि च अग्रे अन्येषां जनानां कृते तैः लाभो भवितुं शक्नोति। देशे यदि प्रथम बुलेट रेल यान परियोजना प्रयोगः सफली भवति तर्हि अग्रे देशे एतस्य कार्यान्वयन दिशि निर्णायकरूपेण मार्गः प्रशस्तो भविष्यति। प्रधानमन्त्रिणा इदमपि कथितं यत् अनुकरणं तदा सार्थकं भविष्यति यदा सुस्पष्टतया तस्य ज्ञानं स्यात्, तथा च तदनुरूपमेव प्रयासाः भवेयुः। श्रीमोदिना तत्र परामृष्टं यत् एवंविध कार्यं स्यात् येन अग्रेपि छात्राः एतस्यां दिशि लाभान्विताः प्रेरिताः च भवेयुः। समर्पण भावनया जीवनमत्र समर्पितं स्यात् तदैव देशार्थं वयं किमपि बहुमूल्यं परित्यज्य गच्छामः।
आपको क्या लगता है, स्पीड ठीक है? आप लोगों ने जो तय किया था उस टाइम टेबल से चल रहे हैं कि आप लोगों को कुछ दिक्कत हो रही है?
नहीं सर, कोई दिक्कत नहीं है।
देखिए, जब तक मन में ये भाव नहीं आता मैं मेरे देश के लिए काम कर रहा हूँ, मैं देश को एक नई चीज दे रहा हूँ। जिसने पहला स्पेस सैटेलाइट छोड़ा होगा उसको लगता होगा ना, और आज सैकड़ों सैटेलाइट जा रहे हैं।
ये जो आपके अनुभव है अगर वो रिकॉर्डेड होंगे, एक ब्लू बुक की तरह तैयार होते हैं, तो देश में हम बहुत बड़ी मात्रा में बुलेट ट्रेन की दिशा में जाने वाले हैं। अगर इस प्रकार का कोई रिकॉर्ड आप मेंटेन करते हैं, भविष्य में स्टूडेंट्स के लिए भी काम आ सकता है।
जिंदगी यही खपा देंगे, देश को कुछ देके जाएंगे।
उत्तर प्रदेश से सोनभद्र जनपदे ही एका खनन गुहा भूमि सात संजाता, तत्र च कार्यं कुर्वतः एकस्य कर्मिणः मृत्युः सञ्जातः। 12+ जनाश्च तत्र गुहाबद्धाः सन्ति इति आशंक्यते। आपदप्रबन्धनदलानि स्थानीयप्रशासनस्य च आपदामोचनदलानि भूमिसात् जातानां जनानां संरक्षणाय युद्धस्तरेण कार्यं कुर्वन्ति। नैके विविधसुरक्षामोचनदलानां वरिष्ठाधिकारिणः अपि तत्र वर्तन्ते। अपर आरक्षी महानिदेशकः पीयूष मोर्डिया वार्ताहरान् असूचयत् यत् ओबरा इत्यस्य बिल्ली मार कुंडी ग्रामे कृष्णा माइन्स खानकस्य आभ्यन्तरे एका भित्ति भूमिसात् संजाता, तत्र च नैके श्रमिकाः भूमौ निमग्नाः संजाताः। एकस्य मृतकस्य मृतशरीरमपि तत्र अवाप्तमस्ति। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। छत्तीसगढ़स्य सुकमा जनपदे सुरक्षा बलैः सह संजाते परस्पर संघर्षे द्वाभ्यां महिला विद्रोहिणीभ्यां सह त्रयः माओवादिनः सुरक्षा बलैः मारिताः। आरक्षिभिः अनुसारं तुमालपाड़क्षेत्रस्य वने माओवादिनां विद्यमानतायाः गुप्त सूचनानन्तरं जनपदीय रिजर्व सुरक्षा दलेन निरीक्षणाभियाने तत्र अवगतं यत् माओवादिनः मध्ये मध्ये गुलिका प्रहारान् कुर्वन्ति स्म। सम्प्रति यावत् त्रयाणां माओवादिनां शवाः सुरक्षाबलैः सम्प्राप्ताः सन्ति। एते माओवादिनः 15 लक्ष रूप्यक राशि पुरस्कारधारिणः आसन्। सुरक्षाकर्मीभिः घटनास्थलात् एका भुसुण्डी BGL लाञ्चर् इति अन्यानि अस्त्राणि विस्फोटकानि चापि अधिकृतानि सन्ति। बस्तर रेंजस्य IGP सुंदरराज पी अकथयत् यत् आरक्षकाणां सुरक्षाबलानां च अतिरिक्त सैन्यदलानि तस्मिन् क्षेत्रे प्रेषितानि सन्ति। अद्य देशे राष्ट्रिय प्रेस दिवस आचर्यते। अयं हि दिवस भारतीय प्रेस परिषद स्थापनायाः प्रतीकभूतो वर्तते। 67+19 शताब्दे अस्मिन्नेव दिवसे संचारतन्त्रं कस्यचित् स्वतन्त्र प्रहरिणः रूपेण कार्यस्य आरम्भम् अकरोत्। केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अद्य अवदत् यत् देशस्य लोकतन्त्रे प्रेस इत्यस्य भूमिका महत्वपूर्णा विद्यते। नवदेहल्यां राष्ट्रिय प्रेस दिवस 25+2000 समारोहे वार्ताहरैः सभाषमाणः श्री वैष्णवः अवदत् यत् अस्मिन् अवसरे असमीचीन सूचनातन्त्रस्य कथञ्चित् समापनं स्यात्, अपि च प्रेस इत्यस्य विश्वसनीयतायाः इतोपि दृढीकरणं स्यात् इत्यस्मिन् विषये व्याख्यानमपि तत्र आयोजितम् आसीत्। श्री वैष्णवः अस्मिन् अवसरे मीडिया जगतः सर्वेषां कार्यकर्तॄणां कृते शुभाशयः अपि प्रदत्तवान्।
आज नेशनल प्रेस डे पे मिस इन्फॉर्मेशन को कैसे काउंटर करें, प्रेस की क्रेडिबिलिटी को कैसे स्ट्रेंथन करें, उस थीम पे व्याख्यान रखा गया था और फोकस किया कि किस तरह से प्रेस और विशेषकर आज के डिजिटल मीडिया की एक्यूरेसी पर, करेक्ट इन्फॉर्मेशन पर, वेरिफिकेशन करने के मेथड पे, इन सब पे ध्यान देने की जरूरत है। और विशेषकर AI के उपयोग से जो लोग मिस इन्फॉर्मेशन स्प्रेड कर रहे हैं उनका किस तरह से हम काउंटर करें।
अमेरिका देश तत्र डोनाल्ड ट्रम्पः अमेरिकादेशीयः डोनाल्ड ट्रम्पः बहुषु खाद्यवस्तुषु आयतशुल्कं न्यूनीकृतवान्। व्हाइट हाउस द्वारा घोषितं यत् उष्णकटिबन्धीय फलरस फलानि चाय उपस्करादीनि तेषु आयातवस्तुषु सम्मिलितानि सन्ति, येषु पारस्परिक कराधानस्य कोऽपि विशिष्ट प्रभावो न भविष्यति। अवधेयं यत् पूर्वं श्रीट्रम्पेन भारतात् निर्यातित वस्तुषु 25% शुल्कं स्थापितमासीत्, अथ च रूसदेशात् तैल आयात कारणात् 25% अतिरिक्तं दण्डात्मकं शुल्कमपि स्थापितम् आसीत्। मुद्रास्फीतेः च नियन्त्रणाय ट्रम्पेन अत्यावश्यक औषधेषु शुल्कं न स्थापितम् आसीत्, अपि तु करमुक्तता तत्र कृता आसीत्, येन च भारतस्य लाभः सञ्जातः। अवधेयं यत् भारतदेशः 47% अत्यावश्यक औषधानाम् आपूर्तिम् अमेरिकादेशाय करोति। पुरुष क्रिकेट दलेन भारतीयः पुरुष क्रिकेट प्रतिस्पर्धायां दक्षिणाफ्रीका दलेन कोलकातायाः ईडन गार्डन्स मध्ये भारतीय क्रिकेट दलं 30 धावनाङ्कैः पराजितम्। भारतीय दलं 93 धावनाङ्केषु एव समाप्तमासीत्, तत्र च अफ्रीकादलेन भारताय 40+100 धावनाङ्कानां लक्ष्यं प्रदत्तं, परन्तु भारतीयदलेन तन्न अधिगतम्। अवधेयं यत् दक्षिणाफ्रीका दलस्य टेम्बा बबूमा तत्र 55 धावनाङ्कानां सर्वाधिक योगदानं स्वीयदलाय अकरोत्। मुख्यवार्ताः पुनरेकवारं। प्रधानमन्त्री श्रीनरेन्द्र मोदी गुजरातस्य सूरते भारतस्य प्रथम बुलेट रेल परियोजनायाः दलीयकर्मिभिः सह वार्तालापम् अकरोत्। उत्तरप्रदेशस्य सोनभद्रे एकस्या खानगुहाया भूमौ निमज्जनात् एकस्य कर्मिणः मरणं सञ्जातम्। छत्तीसगढस्य सुकमा जनपदे सुरक्षाबलैः सह जाते संघर्षे त्रयः माओवादिनः सुरक्षाबलैः मारिताः इति वार्ताः।